अथ भागीरथे गद्यम् श्रीशुक उवाच तत्र भगवतः साक्षाद्यज्ञलिङ्गस्य विष्णोर्विक्रमतः वामपादाङ्गुष्ठनखनिर्भिन्नोर्ध्वाण्डकटाः विवरेण अन्तः प्रविष्टाया बाह्यजलधारा तच्चरणपङ्कजावने जनारुणकिञ्जल्कोपरञ्जिताखिलजगदघमलापः उपस्पर्शनामला साक्षाद्भगवत्पदीत्यनुपलक्षितवचोभिरभिधीयमाना अतिमहता कालेन युगसहस्रोपलक्षणेन दिवो मूर्धन्यवततार यत्तद्विष्णुपदमाहुः यत्र हवाववीरव्रत औत्तानपादिः परमभागवतः अस्मत्कुलदेवताचरणारविन्दोदकमिते यामनुसवनमुत्कृष्यमाणभगवद्भक्तियोगेन दृढं क्लिद्यमानान्तरहृदयः औत्कण्ठ्यविवशामीलितलोचनयुगलकुड्मलविगलितामलबाष्पकलया अभिव्यज्यमानरोमपुलककुलकः अधुनापि परमादरेण शिरसा बिभर्ति तत्र सप्तर्षयस्तत्प्रभावग्ना इयं ननु तपस आत्यन्तिके सिद्धिरेतावतीति भगवति सर्वात्मनि वासुदेवे अनवरतभक्तियोगलाभेनैव उपेक्षितान्यार्थात्मगतयः मुक्तिमिवागतां मुमुक्षवः स बहुमानमेनामद्यापि जटाजूटैरुद्वहन्ति ततोऽनेकसहस्रकोटिविमानानीकसङ्कुलदेवयानेन अवतरन्ति इन्दुमण्डलमाप्लाव्य ब्रह्मसदने निपतते तत्र चतुर्धा भिद्यमाना चतुर्भिर्नामभिश्चतुर्दिशमभिस्यन्दते नदनदीपतिमेवाभिनिविशते सीता अलकनन्दा चक्षुः भद्रा इति सीता तु ब्रह्मसदनात् केसराद्रिशिखरेभ्योऽधोधः पतन्ति गन्धमादनमूर्ध्नि पतित्वान्तरेण भद्राश्वं वर्षं प्राच्यां दिशि क्षारसमुद्रं प्रविशति एवं माल्यवच्छिखरान् निष्पतन्ति अनुपरतवेगा केतुमालमभिचक्षुः प्रतीच्यां दिशि सरित्पतिं प्रविशति भद्रा चोत्तरतो मेरुशिरसो निपतिता गिरिशिखरात् गिरिशिखरमतिहाय शृङ्गवतशृङ्गादभिस्यन्दमाना उत्तरांस्तु कुरूनतिक्रम्य उदीच्यां दिशि लवणार्णवं प्रविशति तथैवालकनन्दा दक्षिणेन तु ब्रह्मसदनाद् बहूनि गिरिकूटान्यतिक्रम्य हेमकूटहिमकूटान्यतितररभसरंहसा लुठन्ति भारतमेव वर्षं दक्षिणस्यां दिशि जलधिं प्रविशति इति श्रीमद्भागवते पञ्चमस्कन्धे भागीरथी गद्यम्।